सर्वेषां स्वागतम् अस्माकं वर्गार्थम्. इदानीं वयं ध्येयमन्त्रः इति वदामः. अहं वदामि, भवन्तः अनुवदन्तु. अस्तु. पठामि संस्कृतं नित्यम्, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्, संस्कृतस्य प्रसाराय, नैजं सर्वं ददाम्यहम्, संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरम्, अग्रे गच्छामः. संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरम्, अस्तु. अस्य पद्यम् इति अस्ति खलु. पद्यम् इत्युक्ते वर्स्. पद्यस्य अर्थः कः? संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते. वयं संस्कृतस्य इति षष्टिविभक्ति खलु, संस्कृतस्य, संस्कृतस्य कृते इति पदं योजयामः चेत् फार् इति आगच्छति. संस्कृतस्य कृते संस्कृत, सो फार् संस्कृतं, संस्कृताय जीवन्, जीवन् मम जीवनं संस्कृताय अर्पयामि इति अर्थः. संस्कृतस्य कृते यजन्, आल् मै एफर्ट्, अहं यत् किं करोमि तत् सर्वं संस्कृतस्य कृते, संस्कृताय अर्पयामि. आत्मानम् आहुतं मन्ये, वन्दे संस्कृतमातरं, संस्कृतमाता, संस्कृतमातरम् अहं वन्दे, अहं नमामि. आत्मानम् आहुतं मन्ये. स्वागतं. आत्मानम् मन्ये, इट् इस् स्टर्रिङ्ग् मै आत्मा. आत्मा आहुतम्, आहुतं मन्ये. I feel like it is touching my atma. Atmanam ahutam manye. Vande samskrita mat. Iti aham chintayami vande samskrita mataram. Avagachantiva? Patami samskritam nityam, vadami samskritam sada, dhyayami samskritam samyak, vande samskrita mataram. Sarala mevakalo. संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं, सर्वं ददामि. संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरं. संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्. आत्मानम् आहुतं मन्ये, वन्दे संस्कृतमातरम्. अस्तु. अग्रिमवर्गे एतत् पश्यामः. हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा. अस्तु. अन्ये के सन्ति इति पश्यामि. उमा रेड्डी भगिनी, एकनिमिषं लिखामि.
नमस्कारः भगिनी.
नमस्कारः भगिनी. रम्या वा? अस्तु. श्रीनिवास महोदय स्वागतम्. रम्या भगिनी,
नमस्कारः भगिनि, सौन्दर्यं
सौन्दर्यमपि वा?
नमस्कारः भगिनि, ज्योति भगिनि,
ज्योति अपि.
नमस्कारः भगिनि उषा.
उषा भगिनि, भवत् नाम न दृश्यते. मालति भगिनि, इदानीम् अस्ति उषा भगिनी, ज्योति भगिनी सर्वम् अस्तु. अग्रिम वर्गे वयम् अन्यपद्यं पश्यामः. गतवर्गे वयं बुभुक्षा यदि तर्हि बुभुक्षा इति विषये दृष्टवन्तः खलु. अत्र प्रश्नाः सन्ति वा? प्रश्नः अस्ति वा? न.
अस्तु,
अस्तु, प्रश्नाः सन्ति चेत् पश्यामः, नो चेत् अत्र. सो अत्र एकनिमिषम् अहं दर्शयामि. वृष्टिः भवति चेत् छत्रं नयामि, वृष्टिः नास्ति चेत् अहं बहिः गत्वा अहं बहिः क्रीडामि. बुभुक्षा अस्ति चेत् खादामि, बुभुक्षा नास्ति चेत् न खादामि. सो अत्र चेत् इति अस्ति चेत् वयं यदि तर्हि इति पदद्वयं न योजयामः. यदि बुभुक्षा अस्ति तर्हि अहं खादामि, यदि बुभुक्षा नास्ति तर्हि अहं न खादामि. यदि तर्हि, इत्युक्ते निश्चयेन बुभुक्षा अस्ति वा नास्ति वा इति न जानामि. यदि अस्ति तर्हि अहं खादामि. यदा तदा कथं कदा योजयामः? बुभुक्षा निश्चयेन आगच्छति इति अहं जानामि. यदा बुभुक्षा अस्ति तदा अहं खादामि इत्येव विषयः. अस्तु,
सोरि, प्लीस् रिपीट् द यदि तर्हि अण्ड् यदा तदा, वाट्स् द डिफरेन्स् बिट्वीन् द टु?
यदि तर्हि वृष्टिः आगच्छति वा न वा इति न जानामि. यदि वृष्टिः आगच्छति तर्हि अहं छत्रं नयामि.
इफ् देन्, इफ् देन् ओके. यदा तदा इस्
अहं निश्चयेन जानामि वृष्टिः आगच्छति इति. यदा वृष्टिः आगच्छति तदा अहं छत्रं स्वीकरोमि.
As and when, something like
that. When, when then, when then.
When then, okay.
सो दिस् अत्र अपि यदा बुभुक्षा अस्ति तदा पिबामि, यदा तदा. यदा अहं चेन्नै नगरम् आगच्छामि तदा अहं मम मातरं पश्यामि, यदा तदा. अहं निश्चयेन आगच्छामि.
उत्तम,
अवगतं वा महोदय? अवगतम्, उत्तमं. अत्र यदि समयः अस्ति तर्हि पुस्तकं पठामि. समयः अस्ति चेत् पुस्तकं पठामि, नो चेत् न पठामि. अहं गतवर्गे उक्तवती अत्र न इति आगच्छति चेत् नो चेत् कार्यं न करोति इति. परन्तु अहं चिन्तयामि समयः नास्ति चेत् पुस्तकं न पठामि, अस्ति चेत् पठामि. समयः पठामि. वदतु भगिनि.
ऐ हेड् रिटन् अ सेण्टेन्स् यद् केन् ऐ यूस् यदि तर्हि देर् आल्सो ऐ वाण्टेड् टु नो. यदा अमेरिका देशात् विमानयानं प्रस्थितं भवति तदा मम श्वश्रूः भारतदेशं पुनर् आगमिष्यन्ति.
अस्तु,
इस् दट् करेक्ट्?
ओके, पुनः वदतु. देर् वास् सम् डिस्टर्बेन्स् भगिनि, पुनः वदतु.
यदा अमेरिकादेशात् विमानयानं प्रस्थितं भवति तदा मम श्वश्रूः भारतदेशं पुनर् आगमिष्यन्ति.
उत्तमम्.
I can use yadi tarhi there, or it should be yada tada only there?
No, see, yadi tarhi and yada tada, it depends on what you want to say, Bhagini. So, we call that vivaksha anusaram. Vivaksha anusaram ittukte, whatever the person wants to say.
Okay. So here I wanted to say, when the flight resumes, my mother-in-law will come back. So it should be
yada tada
only.
Yada tada. So, but see, there is no question that the flight is going to resume, Kalo. At one time, it is going to resume.
Yes.
Then so it is yada tada. Yada tada. Yada tada.
Okay. Thank you, Bhagini.
Yeah, we can say, yadi corona gachati. We don't know if it's ever going to go, Kalo. I mean, think like that, यदि करोना गच्छति तर्हि अहं बहिः गच्छामि. बट् वि आल् नो इट् इस् गोन् गो. यदा करोना गच्छति तदा अहं बहिः गच्छामि. अस्तु, अत्र यदि तर्हि इस् द सेम् कान्सेप्ट् एस् चेत् नो चेत्. यदि समयः अस्ति तर्हि पुस्तकं पठामि. समयः अस्ति चेत् पुस्तकं पठामि, नो चेत् न पठामि. सो अत्र यदि समयः अस्ति तर्हि पुस्तकं पठामि, यदि समयः नास्ति तर्हि पुस्तकं
न पठामि.
आं महोदय, आं महोदय. सो फार् मी ऐ लैक् यूसिङ्ग् चेत् ए लाट्. यदि समयः अस्ति तर्हि पुस्तकं पठामि, समयः अस्ति चेत् पुस्तकं पठामि, नो चेत् न पठामि. सो अत्र
ऐ एम् विथ् यू भगिनी, लेसर् द वर्ड्स् इट् इस् बेटर् आल्वेस्.
सो अत्र यदि समयः नास्ति अथवा यदि कार्यं नास्ति अहं कार्यालयं न गच्छामि. यदि कार्यं नास्ति तर्हि अहं कार्यालयं न गच्छामि. कार्यं नास्ति चेत् कार्यालयं न गच्छामि. सो अत्र नो चेत् डजन्ट् वर्क्, खलु? बिकास् ऐ स्टार्टेड् द सेण्टेन्स् वित् अ नेगेटिव्. So, atra, you can say, asti chet. Karyam asti chet, karyalayam gachami. No chet, na gachami. Okay, we will see. Astu, Mahesh Mahadeya, arambam karotiva, bubuksha.
Bubuksha asti chet, bhojanam karomi. नो चेत् न करोमि.
उत्तम, नो चेत् न करोमि. उत्तम. सो हौ विल् यूस् यदि तर्हि अत्र?
यदि बुभुक्षा अस्ति तर्हि पाकं करोमि.
उत्तम, तावदेव. अस्तु अस्तु, गोपिका भगिनी.
पिपासा अस्ति चेत् अहं जलं पिबामि, नो चेत् न पिबामि.
उत्तम. यदि तर्हि उपयुज्य?
यदि पिपासा अस्ति तर्हि अहं जलं पिबामि.
यदि पिपासा नास्ति?
यदि पिपासा नास्ति अहं जलं न पिबामि.
तर्हि जलं न पिबामि.
तर्हि न पिबामि.
उत्तमम्. अम्ब, अस्वस्था वा, ज्वरः वा, किमपि? अम्ब अम्ब अस्ति वा अस्तु
यदि अस्वस्था अस्ति तर्हि चिकित्सालयं गच्छामि
चिकित्सालयं गच्छामि
चिकित्सालयं गच्छामि अस्वस्था अस्ति चेत् चिकित्सालयं न गच्छामि नो चेत् न गच्छामि
अस्वस्था अस्मि चेत् चिकित्सालयं गच्छामि नो चेत् न गच्छामि उत्तमम्
अस्वस्था अस्ति चिकित्सालयं गच्छामि
उत्तमम् उत्तमं बहु धन्यवादः अस्तु
गच्छामि
अस्तु
अस्वस्थः अस्ति चेत् चिकित्सालयं गच्छामि नो चेत् न गच्छामि
उत्तमम् उत्तमं
यदा अस्वस्थः अस्ति तदा चिकित्सालयं गच्छामि
उत्तमं यदा तदा यदि तर्हि चेत् नो चेत् उत्तमं धन्यवादः अम्ब मालति भगिनि ज्वरः
यदि ज्वरः यदि ज्वरः अस्ति
एकनिमिषं भगिनि
यदि ज्वरः अस्ति औषधं स्वीकरोमि
औषधं स्वीकरोमि
यदि न यदि यदि तदा सी ऐ एम् नाट् एबल् टु अण्डर्स्टाण्ड् तदा एण्ड् तर्हि
एकनिमिषं भगिनि ऐ एम् गेटिङ्ग् लाट् आफ़् नाय्स् कुतः आगच्छति इति न जानामि अहं मालती विहाय सर्वान् म्यूट् करोमि अस्तु सो अत्र यदि तर्हि इत्युक्ते इफ् देन् भगिनि इफ् देन्
नो तदा एण्ड् तर्हि तदा वेन् डु वि यूस् तदा एण्ड् तर्हि यदा ज्वरमस्ति तदा
आं भगिनि सो वेन् वि यूस् यदा यु यूस् तदा
ओके देन् तर्हि वेन् डु वि यूस् तर्हि
तर्हि यु यूस् वित् यदि
यदि
यदि तर्हि सो दे
यदि ज्वरम् अस्ति तदा तर्हि औषधं स्वीकरोमि इस् दट् रैट्
यदि ज्वरः अस्ति
यदि ज्वरः अस्ति तर्हि औषधं स्वीकरोमि
उत्तमम्
देन् द अदर् वन् चेत् रैट् ज्वरः अस्ति चेत् औषधं स्वीकरोमि नो चेत् औषधं न स्वीकरोमि
उत्तमम् औषधं न स्वीकरोमि इदानीं भवत्याः ज्वरम् अस्ति किं करोति अत्र
ज्वरम् ज्वरं यदा ज्वरम् अस्ति
ज्वरः
यदा ज्वरः अस्ति तदा औषधं स्वीकरोमि
उत्तमम् अवगतं खलु
अवगतं यदा
यदा तदा सो वि काल् दिस् युगलं पेर् युगलं
यदा तदा यदि
तर्हि चेत्
चेत् नो चेत्
चेत् नो चेत् अस्तु अस्तु परमेश्वर महोदय सो यु केन् पिक् एनिथिङ्ग् महोदय श्रान्तः समयः योर् ओन् सेण्टेन्स् एनिथिङ्ग् परमेश्वर महोदय यु आर् प्राब्ली आन् म्यूट्
सारी ऐ एल् ऐ अन्म्यूट् ओके यदि समयः अस्ति तर्हि व्यायामं करोमि
व्यायामं पुनः पुनः वदतु यदि
यदि समयः अस्ति तर्हि व्यायामं करोमि.
उत्तमम्.
अदर् वन् इस् यद् नास्ति न यदि समयः नास्ति तर्हि व्यायामं न करोमि.
उत्तमम्. समयः अस्ति चेत्
समयः अस्ति चेत् व्यायामं करोमि. नास्ति चेत् व्यायामं न करोमि.
नो चेत्. नो चेत्
व्यायामं न करोमि.
नो चेत् व्यायामं न करोमि. उत्तमं. व्यायामं व्यायामं न करोमि. उत्तमं.
व्यायाम ओर् व्यायामं.
व्यायामं. व्यायाम. सो अत्र वेनवर् दर् इस् अ सन्देहः ऐ ऐ लुक् अट् द डिक्शनरि खलु. एक्सर्सैज् अत्र नास्ति. अस्तु. I don't want that one. I'll check here.
This is better.
Yeah. Vyayama. So it starts.
Vyayama.
So this is pullinga padam. So we say vyayamam because it is object. So atra. See vyayam. Oh, sorry. I clicked on the wrong one. Ekanimisham. व्यायामं करोति टु डू फिजिकल् एक्सर्सैज् व्यायामं व्यायामं करोति.
But it is written vyayama
there, no? No, no, because there is a dot on top here. Here it is vyayamaha. Because it is pullinga. So it's like saying samayaha. Samayaha asti. Like vyayamaha uttamam.
Oh.
Like that. So vyayamam karoti. Like that. Samayaha asti. So like that. किं वदामि. व्यायामम् इच्छामि. समयं पश्यतु. सो अट् दट् टैम् समयः विल् बिकम् समयम्. बट् वेन् वि यूस् अस्ति इट् गोस् टु प्रथमा विभक्ति. समयः अस्ति. व्यायामः हौ केन् यूस् प्रथमा विभक्ति. व्यायामः उचितं वा. इस् एक्सर्सैस् गुड्. व्यायामः
उचितं
वा. उचितं वा. आवश्यकं वा. आम् आवश्यकं. लैक् दट्. अस्तु. सविता
भगिनी.
सो यु केन् यूस् एनी आफ् दीस् आर् योर् ओन् भगिनी. स्वस्य वाक्यम् अपि वदतु. नो चेत् एतत् स्वीकृत्य वदतु.
I would like to take it from here only. Dhanam.
Dhanam.
Dhanam asti nasti. Yadi dhanam asti. Yadi dhanam asti. Griham. What is it about?
Krina.
Yadi dhanam asti. Yadi dhanam asti. Griham. Ekam griham krina ti.
क्रीणामि वा क्रीणाति वा. क्रीणामि. उत्तम.
यदि धनम् अस्ति अहं गृहं क्रीणामि.
तर्हि तर्हि
ओके. यदि धनम् अस्ति एकं गृहं क्रीणामि तर्हि न क्रीणामि.
न न न तथा न. यदि धनम् अस्ति तर्हि गृहं क्रीणामि. पुनः वदतु भगिनि, यदि
यदि धनम् अस्ति अहं गृहं गृहं क्रीणामि.
भगिनि, सो यु हाव् टु एड् तर्हि. यदि धनम् अस्ति तर्हि
यदि
गृहं क्रीणामि. पुनः वदतु,
यदि धनम् अस्ति, यदि धनम् अस्ति तर्हि गृहं क्रीणामि.
यदि धनं नास्ति,
यदि धनं नास्ति अहं गृहं न क्रीणामि.
तर्हि तर्हि गृहं न क्रीणामि.
क्रीणामि
क्रीणामि टु
बै. यदि धनम् अस्ति तर्हि गृहं क्रीणामि. यदि धनम् अस्ति तर्हि गृहं क्रीणामि.
यदि धनं
नास्ति, यदि धनं नास्ति न क्रीणामि, गृहं न क्रीणामि.
अस्तु, इदानीं चेत् नो चेत्.
धनमस्ति चेत् गृहं क्रीणामि, नो चेत् न क्रीणामि.
उत्तमं भगिनि, उत्तमं. यदि स्थाने यदा अपि उपयोगं कर्तुं शक्नुमः. यदि इत्युक्ते धनं नास्ति वा अस्ति वा इति न जानामि. अत्र उत्तमं भगिनि. उमाकृष्णन् भगिनी, धन्यवादः. सविता भगिनी, उमाकृष्णन् भगिनी.
आं भगिनि,
वातावरणं
यदि वातावरणं सम्यक् अस्ति तर्हि क्रिकेट् क्रीडा भवति.
आम् आम्, क्रिकेट् क्रीडा भवति.
द नेक्स्ट् वन्, वातावरणं सम्यक् अस्ति चेत् क्रिकेट् क्रीडा भवति, नो चेत् न भवति.
नो चेत् न भवति, उत्तमम्.
यदा वातावरणं सम्यक् अस्ति तदा क्रिकेट् क्रीडा भवति.
उत्तमं,
धन्यवादः.
धन्यवादः, उत्तमं. शारदा भगिनी,
हां भगिनी,
वदतु.
एनीथिंग और
एनीथिंग योर ओन एनीथिंग भगिनी.
अतिथिः आगच्छति. यदि अतिथिः आशङ्कितः आगच्छति तर्हि वयम् आनन्देन एतम् अभिनन्दामः.
उत्तमम्.
अतिथिः आशङ्कितः आगच्छति चेत् वयम् आनन्देन एतम् अभिनन्दामः, नो चेत् अतिथिः सम्प्रतीक्षते.
सम्प्रतीक्षते, उत्तमम्. सो सम्प्रतीक्षते इतोपि न उक्तवन्तः. ओके, सो केन् यु जस्ट् एक्स्प्लेन् टु एव्रिबडि वाट् इट् मीन्स् सम्प्रतीक्षाम.
ऐ वेट् फार् गेस्ट्.
प्रतीक्षणम् इति
the last person who spoke, bagini up audio, you are audible.
Okay,
bagini is not a problem, the other one who spoke was not audible.
Okay, so punah vadatu bagini, atithihi griham agachiti. Bagini, use simple sentences bagini. Simple sentence. Atithihi griham agachati anandena अभिनन्दामः, उत्तमम्. अभिनन्दामः, अभिनन्दामः इत्युक्ते किं?
वेल्कम्.
वेल्कम्, उत्तमम्. ध्वनिः आगच्छति
अतिथिः
अतिथिः अतिथिः न आगच्छति what you said was we will wait for them pratiksham kurmah kalo bagini pratiksham kurmah iti dhanyavadah bagini dhanyavadah astu parameshwar mahodaya oh parameshwar mahodaya अभवत् खलु परमेश्वरमहोदय अभवत् उमाकृष्णन् भगिनि
भगिनि ऐ आन्सर्ड्
यु आल्सो आन्सर्ड् ऐ एम् सारि ऐ मेण्ट् उमा रेड्डि भगिनि सारि उमा रेड्डि भगिनि वदतु भगिनि एनिथिङ्ग् यु केन् से और् स्वस्य वाक्यमपि वक्तुं शक्नुमः शक्नोति
धनमस्ति
वदतु धनम् अस्ति
यदि धनम् अस्ति तर्हि गोल्ड् गोल्ड् आर्नमेण्ट्स्
स्वर्ण आभरणं
स्वर्ण आभरणं करोति
क्रीणामि
क्रीणामि स्वर्ण आभरणं क्रीणामि धनम् अस्ति स्वर्ण आभरणं क्रीणामि
उत्तम
यदि यदि धनं नास्ति तर्हि न क्रीणामि
उत्तम चेत् चेत् उपयुज्य चेत्
धनम् अस्ति चेत्
स्वर्णाभरणं स्वर्णाभरणं किं करोति स्वर्णाभरणं क्रीणामि खलु
क्रीणामि
न धनम् अस्ति चेत् स्वर्णाभरणं क्रीणामि नो चेत्
धनं नो चेत् अस्ति
न भगिनि तथा नास्ति धनम् अस्ति चेत् स्वर्णाभरणं क्रीणामि न क्रीणामि धनम् अस्ति चेत् स्वर्णाभरणं क्रीणामि नो चेत् न क्रीणामि नो चेत् न क्रीणामि उत्तमम् श्रीनिवास महोदय
So, since everybody is on dhanam, let me also go to dhanam. Okay. Dhanam asti chet, vishwa darshanam kardum ichami.
Uttama.
Okay. Dhanam no chet.
Just no chet.
Acha, okay. No chet. Dhanam sampatana तदनन्तरं विश्वदर्शनं कर्तुम् इच्छामि
उत्तमम् भवतः लक्ष्यमेव विश्वदर्शनम् इति उत्तमं यदि तर्हि उपयुज्य वदतु महोदय यदि तर्हि
ओके यदि धनम् अस्ति चेत्
न यु केनाट् कम्बैन् यदि अण्ड् चेत्
यदि धनम् अस्ति तर्हि विश्वदर्शनं कर्तुम् इच्छामि
उत्तम
यदि धनं नास्ति तर्हि धनं सम्पादनानन्तरं विश्वदर्शनं कर्तुम् इच्छामि
उत्तम 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 अस्तु रम्या भगिनी अनन्तरं सौन्दरं भगिनी
यदि तर्हि भगिनि यदि यदि मै ओन् सेण्टेन्स्
उत्तमम् उत्तमं
यदि वर्षा आगच्छति तर्हि इन्द्रधनुः प्रकाशते
उत्तमम्
विरामः अस्ति चेत् पठति
पठामि वा
पठति नो चेत् न पठति
का न पठति अथवा कः न पठति
भवती
न
भवती
अहं वा अस्तु
ऐ एम् टेलिङ्ग् टु समवन् सो विरामः अस्ति चेत् पठति नो चेत् न पठति
पठति मीन्स् ऐ यु टाकिङ्ग् अबौट् योर् सेल्फ़् भगिनि अहं वा What is
no, the... I am talking about if you have time, you read. If you don't have time, don't read.
So, tarhi tatra patatu iti agachati. Patatu.
Okay. Viramaha asti chet patatu, no chet na patatu.
So, atra, instead of na, it becomes ma.
Ma, okay.
Punaha vadatu bhagini?
Viramaha asti chet patatu. नो चेत् मा पठतु
धन्यवादः
यदा सत्सङ्गः तदा शान्तिः
उत्तमं तदा शान्तिः उत्तमं सौन्दरं भगिनि धन्यवादः रम्या भगिनि सौन्दरं भगिनि अस्तु ज्योति भगिनी अनन्तरम् उषा भगिनी
भगिनी सौन्दरं
सौन्दरं वा अस्तु सौन्दरं ज्योति अनन्तरम् उषा भगिनी सौन्दरं भगिनी
यदि परीक्षा आगच्छति तर्हि सर्वे सम्यक् पठन्ति
उत्तमं
परीक्षा अस्ति चेत् छात्र आगच्छति नो चेत् परीक्षा अस्ति चेत् छात्रा पठति नो चेत् छात्रा न पठति
उत्तमं न पठति यदा तदा
यदा परीक्षा आगच्छति तदा सर्वे सम्यक् पठन्ति
उत्तमं भगिनि अस्तु ज्योति भगिनि
भगिनि पुष्पं पुष्पाणि
पुष्पाणि
यदि पुष्पाणि सन्ति तर्हि अहं स्रजं करोमि
गालन् उत्तमं
स्रजं करोमि यदि चेत् नो चेत् न भगिनी नेक्स्ट् वन् पुष्पाणि सन्ति चेत् श्रद्धां करोमि नो चेत् करोमि
नो चेत् न करोमि उत्तमम् अस्तु
धन्यवादः भगिनि
यदा तदा
यदा पुष्पाणि सन्ति श्रद्धां करोमि तदा ऐ काण्ट् मेक् नो भगिनि तदा अहं ऐ मेक् फोर् गाड् हौ विल् ऐ से भगिनि
वि हेवन् लर्न्ड् दट् भगिनि विल् कम् फर् दट् विल् कम् फर् दट् यदा पुष्पाणि सन्ति तदा
सजं करोमि
सजं करोमि उत्तमम् धन्यवादः उषा भगिनि
Is that the last one, Pushpani?
No.
Is there more?
More.
Okay. Shikshika. Shikshika Grihakaryam. about that shikshika grahakaryam grahapatham dasyati
dasyati
so shikshika is student
no shikshika is teacher
okay yada shikshika grahakaryam yada samayah asti
uttam
shikshika grahakaryam oh you just
yeah I'll go here yada samayah asti kala samayah
yada samayah asti shikshika grahakaryam dadati
uttam
yada samayah asti shikshika grahakaryam dadati tada aham grahakaryam karomi
यदा तदा उत्तम चेत् इति उपयोगं करोतु भगिनि
समयः अस्ति चेत् शिक्षिका गृहकार्यं ददाति नो चेत् न ददाति
उत्तम नो चेत् न ददाति
यदि समयः अस्ति शिक्षिका गृहकार्यं ददाति अहं
न न यदि समयः अस्ति तर्हि गृहकार्यं ददाति
यदि समयः अस्ति शिक्षिका गृहकार्यं
भगिनि यु हाव् टु से तर्हि आल्सो यदि समयः अस्ति
तर्हि शिक्षिका गृहकार्यं ददाति यदि समयः अस्ति तदा शिक्षिका गृहकार्यं ददाति
आम् आम्
That's it, right?
That's it. Uttamam. Yadi samayaha asti tarhi shikshika grihakaryam dadati. Samayaha asti chet shikshika grihakaryam dadati. No chet na dadati. So atra yadi samayaha asti tarhi shikshika grihakaryam dadati.
Yeah. Okay.
Yadi samayaha nasti tarhi shikshika grihakaryam
na dadati.
Na dadati. Okay,
shikshika grahakaryam, tell me in English, I can't understand that.
The teacher gives homework. I say griha paatam, hello?
Paatam, I thought. Kari means I thought some work.
Yeah, okay, it's homework like English. Homework. Okay. Grahakaryam atava griha paataha.
Dhanyavad, Bhagini.
Astu, Bhagini. Anya kopi asti va?
Narayan Murthy.
Narayan Murthy va, uttama. Anya?
गोपिका अस्ति
स्वस्य वाक्यं अस्तु इदानीं नारायणमूर्ति महोदय
परीक्षा आगच्छति चेत् सर्वे सम्यक् पठन्ति नो चेत् न पठन्ति
उत्तमं
यदा परीक्षा
यदा
परीक्षा आगच्छति चेत् यदा परीक्षा आगच्छति तदा सर्वे सम्यक् पठन्ति
उत्तमं
यदा परीक्षा आगच्छति तर्हि सर्वे सम्यक् पठन्ति
सो विद् तर्हि यदि
यदि यदि यदि यदि परीक्षा आगच्छति तर्हि सर्वे सम्यक् पठन्ति
उत्तमं यदि तर्हि यदा तदा यदा तदा सो इट् मेचस् खलु यदा तदा यदि तर्हि चेत् नो चेत् ओके अस्तु गोपिका भगिनी धन्यवादः महोदय गोपिका भगिनी स्वस्य वाक्यम् इति उक्तवती खलु वदतु
यदि समयः अस्ति तर्हि मम पितरौ पाठं शिक्षणं करिष्यावः
ओ किं 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 डोण्ट् यूस् थिङ्ग्स् भगिनि डोण्ट् यूस् थिङ्ग्स् वी हेवन्ट् लर्न्ड् ओके बिकास् ऐ डोण्ट् ओके वदतु
once you said like that's a
astu punah vadatu no what I'm saying is if you say something new you have to explain astu vadatu
okay okay yadi samaya यदि समयः अस्ति तर्हि मम पितरौ पाठं शिक्षणं करिष्यावः. When there is time, my mom and dad would teach me lessons. That's what I
mean. Uttam. Yadi, you said yadi kalu, so it is if.
Yes, if, then. Samyak vabhagini?
Samyak.
Anantaram. Yadi kuchelaha krishnasya sabha gatavan. तदा सः सदन अभवत् विच् मीन्स् इफ् वेन्
वेन् सो सो यु से यदा
यदा कुचेलः कृष्णस्य सभा गतवान्
सभां
गतवान् तदा सः सदन अभवत्
सदन इत्युक्ते
वेल्ति हि बिकेम् वेल्ति
सदनम् अभवत् उत्तम
वेन् कुचेला वेण्ट् टु कृष्णा सभा पालस् हि बिकेम् वेल्ति
सः धनवान् अभवत् उत्तम अन्य अस्ति वा
यदा कोरोना फ्यूचर टेन्स यदा कोरोना गमिष्यति अहं मम पितरौ सह
तदा
यदा कोरोना गमिष्यति तदा अहं मम पितरौ सह न्यूयार्क आगमिष्यामः अनन्तरं महोदयां मिलामः
उत्तमं भगिनि परन्तु देर् आर् सम् दोषा इन् द लास्ट् सेण्टेन्स् ओके सो वि विल् टाक् अबौट् इट् लेटर् अस्तु सो अत्र सो वि हाव् टु यूस् सम् अदर् फार्म् ओके सो दट् विल् टेक् लाङ्ग् टु एक्स्प्लेन् बट् वेरि गुड् भगिनि वेरि गुड् एनिबडि एल्स् अन्य कोऽपि अस्ति वा वाक्यं वक्तुम् इच्छन्ति वा अस्तु नो चेत् अग्रे गच्छामः उत्तमं भगिनि पृच्छतु
यदा तदा ओन्ली विल् केन् फार्म् पास्ट् टेन्स् राइट्
नो 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 भगिनि एनिथिङ्ग् केन् बि पास्ट् टेन्स् ऐ मीन् एनिथिङ्ग् या you're right yada tada past tense correct
if then cannot have past tense.
It cannot have past tense you're right Gagini.
But how about future it can happen in
every yeah anything yeah okay. very good observation Gagini. Yeah
thank you
uttam so we can say yada aham balika asam तदा अहं वाट् किं वदामि वदतु यदा
नृत्यं करो
नृत्यं कृतवती यदा अहं किं विद्यालयं गतवती तदा
ग्रन्थालये पुस्तकं क्रीणति नो
क्रीतवती परन्तु ग्रन्थालयम् इस्
लैब्ररी
ग्रन्थालये पुस्तकं
पठितवती
आपणे पुस्तकं क्रीतवती उत्तमं भगिनि पास्ट् टेन्स् भूतकाल
Bhagini, can't it be used for future tense also, Bhagini?
Nischayena. Yada aham Bharatam agamishyami, tada aham Tirupati Mandiram gamishyami. Nischayena. अन्यप्रश्नः अस्ति वा? नो चेत् अग्रे गच्छामः. अग्रिमपाठः अस्ति बहु सुलभः पाठः एव.
सुलभः पाठः एव.
सुलभः पाठः एव. न न तावत् सुलभः न. अस्तु,
भवतः सुलभः, अहमपि सुलभः,
सर्वेषामेव. अहं प्रदर्शयामि. तः पर्यन्तं, तः इत्युक्ते आरम्भं सूचयति, पर्यन्तम् इत्युक्ते अन्तिम समयं सूचयति. अस्माकं वर्गः, अहं न्यूयार्क् विषये वदामि, अस्माकं वर्गः सप्तवादन सार्धसप्तवादनतः नववादनपर्यन्तं भवति. भारतसमयं वदामः चेत् अस्माकं वर्गः पञ्चवादनतः सार्धषड्वादनपर्यन्तं भवति. तावदेव, बहु
तावदेव.
It is said the same way, Bhagini. Artha samana.
Okay.
So, idani bhavati sulabha va na va? Bahu sulabha.
It's easy, Bhagini. Sulabha.
अहं सोमवासरतः शुक्रवासरपर्यन्तं कार्यं करोमि, कार्यालयं गच्छामि. सुलभः एव. तः पर्यन्तं समयं सूचयति. ओके, बहु सुलभः एव. परन्तु ततः पूर्वं च एव इति अपि इति अस्ति. अस्तु वा? अत्र च इति पदम् एकम् आवलि अस्ति चेत्, आवलि इत्युक्ते लिस्ट्, आवलि अस्ति चेत् तत्र अन्तिमपदमेव च. उदाहरणम् अहम् अत्र लिखामि. रामः गच्छति, अनन्तरं रामः पठति, अनन्तरं रामः क्रीडति. रामः गच्छति, रामः पठति, रामः क्रीडति. वयं सर्वाणि वाक्यानि मिलित्वा रामः गच्छति, पठति, क्रीडति च इति वक्तुं शक्नुमः. ओके, अस्तु. परन्तु अन्तिमपदमेव च.
च नीड् नाट् बि इन् एव्रिथिङ्ग्. गच्छति च, पठति च, क्रीडति च इस् नाट् रिक्वैर्ड्.
नो नो नो, इट् इस् राङ्ग् एक्चुलि, इट् इस् राङ्ग्. ओके, आङ्ग्लभाषायां सः गच्छति, पठति एण्ड् क्रीडति, नो, तदपि दोषः एव. ओके, सो दिस् इस् द नियमः, गच्छति, पठति, क्रीडति च इति. एकनिमिषम् अहं पश्यामि. ऐ हेव् इट् रिटन् डौन्. एकनिमिषं, कुत्र अस्ति इति पश्यामि. अस्तु, अत्र च इति आवल्याम् अन्ते आगच्छति. बालिका, बालकः, अम्बा, जनकः च गच्छन्ति. सो अत्र अत्र के गच्छन्ति? बालकः, बालकः गच्छति, So this is one sentence. Ekam vakyam asti. Balakaha. I wrote balakaha.
Balakaha.
I wrote balakaha. Balakaha gachyate. Balika gachyate. Amba gachyate. Janakaha. Janakaha gachyate. सो अत्र वयं बालकः बालिका अम्बा जनकः च गच्छन्ति अत्र गच्छन्ति इति आगच्छति गच्छन्ति किम् इत्युक्ते एकं द्वे त्रीणि चत्वारि जनाः कार्यं कुर्वन्ति अतः बहुवचनं भवन्ति अत्र गच्छन्ति इति अत्र एक एव सीता इति अनुमानं कुर्वन् सीता गच्छति सीता पठति सीता क्रीडति सीता गच्छति पठति क्रीडति च भिन्नभिन्नकार्यं करोति सीता अवगतं वा अत्र किमर्थं गच्छन्ति च गच्छन्ति वदतु भगिनी
भगिनी गच्छन्ति च और च शुड कम फर्स्ट आफ्टर दैट गच्छन्ति
नो नो च एंड देन गच्छन्ति
एंड गच्छन्ति ओके भगिनी
बालकः बालिका अम्बा जनकः च गच्छन्ति
टुगेदर दे गोइंग
टुगेदर दे गो
ओके
अस्तु अस्तु अत्र एव इति अस्तु अत्र अत्र पश्यामः एव रामः फलं खादति इति एकं वाक्यम् अस्ति रामः फलं खादति सो अत्र रामः एव फलं खादति इति अस्ति चेत् अहं किं वदामि सोमः न खादति खलु सोमः न खादति श्यामः न खादति रामः एव खादति अवगतं वा रामः एव खादति
Only Rama is, they don't.
Ramah eva itikte. Ramah eva kadati itikte. Soma anya kimapi na kadati. That's what it means.
Bhagini, can you send us your notes?
Nischayana, nischayana. Anya kopi na kadati. Nobody else eats it. रामः एव खादति अवगतं वा रामः एव खादति रामः फलम् एव खादति इत्युक्ते किम्
ओन्लि
फ्रूट् सो इत्युक्ते रामः रोटिकां न खादति रोटिकां न खादति
पयोहिमं न खादति
पयोहिमं न खादति अन्नं न खादति
पयोहिमं
ऐस्क्रीम् चाकलेहं न खादति चाकलेहं न खादति इत्युक्ते अन्य किमपि
किमपि
उत्तमं भगिनि अन्य किमपि न खादति फलम् एव खादति अस्तु सो अत्र रामः एव इत्युक्ते कर्ता द सब्जेक्ट् नो अदर् सब्जेक्ट् इति अन्य कोऽपि न करोति न खादति फलम् एव दट् इस् कर्म नो अदर् आब्जेक्ट् फलम् एव खादति इत्युक्ते अन्य किमपि न खादति अत्र पश्यन्तु रामः फलं खादति एव न पठति न पीडति न पश्यति रामः हि डजन्ट् लुक् अट् द फ्रूट् इवन् रामः न पश्यति न क्रीणाति न कर्तयति हि डजन् कट् इट् न कर्तयति हि डजन् गिव् इट् एनिबडि न ददाति न प्रक्षालयति हि डजन् वाश् प्रक्षालयति सो वि केन् से केवलं केवलम् इस् आल्सो ओन्लि केवलं खादति So, which means, anya kimapi na karoti. Anya kimapi na karoti.
Okay, anya much focused on the job.
Focused on the job. It doesn't do anything else with it. Astu, aham, mute karomi. I think that... अस्तु अन्य अन्य किमपि सह न करोति एव च एव अन्य किम् अस्ति अत्र च एव इति अपि अस्तु इदानीम् अपि 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 पश्यामः अपि इत्युक्ते रामः फलं खादति एतत् वाक्यमेव स्वीकुर्मः वयं रामः अपि फलं खादति इत्युक्ते किं रामः अपि फलं खादति राम आल्सो ईट्स् इत्युक्ते सोमः खादति भरतः खादति अहं किमपि लिखामि भरतः खादति रामः अपि खादति रामः अपि खादति सो अत्र अहं रामः अपि खादति इति प्रथमवाक्यं न वक्तुं शक्नुमः खलु अन्तिमेव प्रथमम् अहं वक्तव्यं वि हाव् टु से वक्तव्यं सोमः खादति रामः अपि खादति सीता गच्छति रामः अपि गच्छति प्रथमं रामः गच्छति अनन्तरमेव सीता गच्छति खलु रामः गच्छति सीता अपि गच्छति रामः गच्छति इति कारणेन एव सीता गच्छति अतः सीता अपि गच्छति रामः गच्छति सीता अपि गच्छति एतत् वाक्यं सम्यक् वाक्यं परन्तु सीता गच्छति रामः अपि गच्छति इति वाक्यं सम्यक् नास्ति खलु
Bahini question, in a sentence, then does that mean there could be only one api?
No.
No, Ramah gachati, Sita api gachati, Lakshmana api gachati will come or only the one person will have the api?
No, no, no. लक्ष्मणः अपि गच्छति सीता अपि गच्छति
ओके सो बिकॉज इन दिस यू आर सेइंग सोमः खादति भरतः खादति रामः अपि खादति सो आई थॉट देयर शुड बी ओनली वन अपि
नो नो रामः अपि खादति सीता अपि खादति
अच्छा ओके
परन्तु प्रथमं somebody else has to do it प्रथमं कोपि तथैव कार्यं करणीयम् सोमः खादति अनन्तरं रामः अपि खादति इति वयं वक्तुं शक्नुमः परन्तु रामः अपि खादति सोमः खादति इति वाक्यं शुद्धं नास्ति हलो प्रथमम् अन्ये किमपि खादति अनन्तरं रामः अपि खादति अवगतं वा अस्तु प्रश्नः अस्ति चेत् पृच्छतु
केन ऐ से रामः सीता च अपि खादति
रामः सीता च खादतः लैक् टु सो ऐ केन् से त्रि रामः सीता भरतः ऐ मीन् लक्ष्मणः च खादन्ति नो अत्र अपि न आगच्छति भगिनि
अपि न
आगच्छति अपि न आगच्छति ते खादन्ति अपि न आगच्छति तत्र
अपि विल् कम् ओन्ली फार् सिङ्गल् सब्जेक्ट्
नो 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 उदाहरणार्थं जनकः लेट्स् से फादर् जनकः गच्छति माता अनुजा मातामही ते अपि गच्छन्ति ओके सो अस्तु उदाहरणार्थम् अहं वदामि अस्तु एतत् एतानि वाक्यानि पश्यन्तु अत्र सोमः खादति प्रथमवाक्यं सोमः खादति सो अहं भरतः अपि खादति रामः अपि खादति सीता अपि खादति इति लिखितवती सो अत्र भरतः रामः
एवं सीता
एवम् अत्र न आगच्छति महोदय एवम् एवम् इति न सीता च खादन्ति अथवा भरतः रामः सीता अपि खादन्ति च अपि खादन्ति सो वी केन् से च खादन्ति अथवा भरतः रामः सीता अपि खादन्ति
So, here we are using and also interchangeably.
Interchangeably. So, I can say, Bharatah Ramah Sita Cha Khadanti. So, at that time, I'm not saying that they are following Soma's example.
Because when you use Cha, it doesn't say whether they are eating with soma or they are eating
correct so api says they are following soma's example so you see the difference bedah ajanantiva when we use cha they are all doing it together but who did it first somah khadati pratama अवगतम्
अवगतं भगिनि
उत्तमम् सो अत्र रामः सारि रामः फलम् अपि खादति इत्युक्ते किम्
Rama eats fruit also.
रामः
फ्रूट् आल्सो
रामः प्रथमम् अन्नं खादति प्रथमम् अन्नं खादति अनन्तरं रामः फलम् अपि खादति प्रथमं रामः अन्य किमपि खादति अनन्तरमेव फलं खादति अत्र सोमः प्रथमं खादति अनन्तरं भरतं खाद अनन्तरं भरतः अपि खादति रामः अपि खादति अत्र रामः प्रथमम् अन्नं खादति अनन्तरमेव फलं खादति अवगतं वा अस्तु
भगिनि इन् द सेण्टेन्स् सोमः खादति भरतः रामः सीता अपि खादन्ति इन् द सेण्टेन्स् वि डिड् नाट् रैट् च
no because if you write cha if I'll show you no.
So before api
cha
and api both
he doesn't he doesn't matter hello somah putra api kadati bharatah ramah sita anyatra kadati but if I write api that means somebody else ate before पूर्वं कोऽपि खादति कोऽपि खादितवान्
वाट् ऐ मेण्ट् वास् च अण्ड् अपि बोत् टुगेदर् रैटिङ्ग् वन् आफ़् द अदर् सीता च अपि खादन्ति
रामः सीता च अपि न न इट् डज़न्ट् वर्क् महोदय
देर् इस् नो नीड् आफ़् देर् इस् नो नीड् आफ़् रैटिङ्ग् च नौ
नो नीड् आफ़् रैटिङ्ग् च इट्स् लैक् आल्मोस्ट् ऐ एम् सेयिङ्ग् ते अपि
खादन्ति
इट् केनाट् कम् टुगेदर् सो वेन् यु रैट् ते ऐ एम् जस्ट् पुटिङ्ग् देम् टुगेदर् ते भरतः रामः सीता अपि खादन्ति अथवा ते अपि खादन्ति अस्तु सो अत्र रामः फलमपि खादति इत्युक्ते रामः अन्नं पूर्वं खादति पूर्वं रामः अन्नं खादति अनन्तरं सो दिस् अपि मीन्स् अनन्तरम् इट् इम्प्लैस् अनन्तरम् अनन्तरम् आफ्टर्वर्ड्स् फलम् अपि खादति सो वि केन् से पायसम् अपि खादति परन्तु पूर्वम् अन्नं खादति अनन्तरम् अपि खादति अस्तु अनन्तरं रामः फलं खादति अपि इत्युक्ते फलं ददाति फलं ददाति क्रीणाति कर्तयति खादति अपि कर्तयति
कटिङ्ग् इस् कर्तयति
कर्तनं करोति कर्तयति
सो कत्री हस् कम् फ्रम् देट् वर्ड्
कर्तरि अस्तु अत्र रामः फलं खादति अपि इत्युक्ते एतत् एव विषयः अन्य किमपि करोति सो उदाहरणार्थं रामः फलं ददाति प्रथमविषयं रामः फलं ददाति रामः क्रीणाति अपि कर्तयति अपि खादति अपि अथवा रामः फलं ददाति क्रीणाति कर्तयति च हि डिड् आल् दिस् बिफोर् रामः अनन्तरं खादति अपि. अवगतं वा? अत्र उपरि गच्छामि एकनिमिषम्. अत्र रामः फलं खादति एव, खादति एव अत्र अन्य अर्थः अपि अस्ति. खादति एव इत्युक्ते डेफिनेट्लि निश्चयेन, निश्चयेन खादति अपि अर्थः अस्ति. निश्चयेन खादति एव इति अर्थः.
So it can be used either as only or as definitely.
Yeah, it depends on the circumstance. Like for example, we can say saha agachati eva, that means it's definitely going to come. Saha karyam karoti eva, he will always do the work. So it is like always. Eva is only and also always. I mean, definitely. Nischayena. Nischayena. Okay. Astu. Agrima vakya. Iti. Astu. Iti. Astu. Atra, iti, iti, upayogam kurmaha chet, tatra direct speech. इत्युक्ते साक्षात् किम् उक्तवान् तत् लेखनीयम्. उदाहरणार्थं कैकेयी वदति, कैकेयी उक्तवती किम् उक्तवती? राम डैरेक्ट् स्पीच्. राम वनं गच्छतु इति सा उक्तवती. सो वेन् ऐ रैट् दट् ऐ हाव् टु रैट् इति. कैकेयी उक्तवती राम वनं गच्छतु इति. कैकेयी उक्तवती राम वनं गच्छतु इति. We can also use when we are thinking. Aham chintayami. Aham shigram. कुत्र इति न. ओके, अस्तु, सर्वे म्यूट् कृतवन्तः, समीचीनं. सो अत्र whenever we are quoting somebody who said something, अत्र इति आगच्छति. चिन्तनम् अस्ति चेत् अहं चिन्तयामि, अहं शीघ्रम् उत्तिष्ठामि इति, अथवा अहं शीघ्रं वदामि इति, अथवा अहं शीघ्रम् आगच्छामि इति, किमपि. अहं शीघ्रम् आगच्छामि इति. वि केन् आल्सो से फार् अहं जानामि, अहं जानामि सा न आगच्छति इति.
वि केन् नो दट् शी विल् नाट् कम्.
ऐ नो दट् शी इस् नाट् कमिङ्ग्.
शी इस् नाट् कमिङ्ग्.
ऐ सा न आगच्छति इति. ओके, अस्तु.
जानामि अन्तिममपि आगच्छति खलु. अहं
सा न आगच्छति इति जानामि
इति जानामि इति चिन्तयामि इति उक्तवती कैकेयी राम वनं गच्छतु इति उक्तवती
इति उक्तवती
अहं शीघ्रम् आगच्छामि इति अहं चिन्तयामि इत्यादि लैक् दिस् इति इस् लैक् दिस् अनन्तरम् एवं महोदय फेवरेट् वर्ड् एवं एवम् इस् आल्सो लैक् दिस् सो देर् आर् टू यूसेस् लैक् वि से एवं वा एवं इस् इट् सो एवं वा इत्युक्ते इस् इट् सो लैक् वि केन् से कोरोना गच्छति कोरोना भारतदेशे नास्ति एवं वा लैक् वेन् यु आर् सर्प्रैस्ड् एवं वा कोरोना इति एक माया एव इति कोऽपि उक्तवान् चेत् एवं वा इस् इट् सो लैक् दट् ओके दट् इस् एकः प्रयोगः एवम् इति पदस्य एकः प्रयोगः अन्यप्रयोगः एवं कुर्मः सारि एवं कुर्मः सो दिस् मीन्स् लेट्स् डू इट् लैक् दिस् इति वयं वदामः चेत् किं वदामि इत्युक्ते एकम् उपायम् अस्ति ऐ हेव् अ प्लान् एकम् उपायम् अस्ति एवं कुर्मः इति उक्त्वा अहं मम उपायं वदामि अवगच्छति वा उदाहरणं
भगिनि
न अस्तु या न इति अहं चिन्तयामि अस्तु उदाहरणार्थम् एकं नीडम् अस्ति नीडम् इत्युक्ते बर्ड्स् नेस्ट् नीडम् अस्ति तत्र एकः काकः तस्य कुटुम्बेन सह वसति तत्र वृक्षस्य अधः एकः सर्पः अस्ति सर्पः उपरि आगत्य काकं मारयति खादति च अवगतं वा यु अण्डर्स्टाण्ड् सो फार् सोरि अस्तु
आं भगिनि
अस्तु एकः शृगालः तत्र आगच्छति वुल्फ् आर् अ जाकल् तत्र आगच्छति सः उक्तवान् राजकुमारी तत्र स्नानं करोति तस्याः आभरणं स्वीकृत्य सर्पस्य कुटीरे दट् इस् वन् होल् रैट् स्थापयतु तदा राजकुमारस्य भटाः दट् इस् सोल्जर्स् तत्र आगतवन्तः तत्र आगतवन्तः न तत्र आगमिष्यति सर्पं मारयिष्यति इति अवगतं वा सो अत्र शृगालः वदति एतम् उपायं सम्यक् अस्ति चेत् एवं करोतु इति काकः अपि एवं कृतवान् सो दट् इस् एवं लैक् दिस् ओके सो आफ्टर् सेयिङ्ग् समथिङ्ग् एवं कुर्मः बहु ध्वनिः आगच्छति कुत्र अस्तु अहं सर्वं लिखितवती अत्र अन्य एकम् एकमेव अस्ति कः अपि इट् बिकम्स् कोऽपि कः अपि अस्ति वा दट् मीन्स् इस् देर् एनिबडि सो अस्तु अहम् अग्रे वदामि इदानीं वयम् एतं सम्भाषणं पठामः भोः मित्र कुत्र कुत्र गच्छति भवान् प्रवासार्थं गच्छामि प्रवासार्थं टु लुक् अराउण्ड् प्रवासार्थं गच्छामि के गच्छन्ति अहं श्रीनिधिः भास्करः विमला च गच्छामः च इति पदम् अन्तिमपदमेव अस्ति चेत् भोः इत्युक्ते लैक् हे
हे हे
हे
हे प्रेम
हे हे मित्र सम्बोधन अस्तु अत्र मेखला अपि आगच्छति पूर्वम् एते आगच्छन्ति मेखला अपि आगच्छामि इति उक्तवती अहमपि आगच्छामि इति उक्तवती अवगतं वा मेखला अहमपि आगच्छामि इति उक्तवती सो दे डिड् नाट् पुट् द कोर्स् परन्तु दिस् इस् विद् इन् कोर्स् मेखला अहमपि आगच्छामि अहमपि न लिखितम् अत्र परन्तु अहमपि आगच्छामि इति उक्तवती सा आगच्छति वा न वा इति न जानामि अवगतं वा सा आगच्छति वा न वा इति न जानामि सा न आगच्छति एव वाट् डस् दट् मीन् न आगच्छति एव
शि विल् नाट् कम्
या डेफिनेट्लि नाट् कम् डेफिनेट्लि नाट् कम् भवान् कथं जानाति हौ डु यु नो शि डेफिनेट्लि विल् नाट् कम् तस्याः गृहे कोऽपि कार्यक्रमः अस्ति कोऽपि कार्यक्रमः मीन् सम् कार्यक्रमः नाट् सम् एक कः कः अपि कार्यक्रमः सो हियर् द अपि कम्स् इन् टु प्ले कः अपि कः अपि कः अपि विल् बिकम् कोऽपि दट् मीन्स् सम् कार्यक्रमः अस्ति कः अपि कार्यक्रमः अस्ति अतः मीन्स् देर् फोर् अतः बहु ध्वनिः आगच्छति कृपया म्यूट् करोतु अतः सा प्रवासार्थम् आगन्तुं न शक्नोति शि इस् नाट् एबल् टु कम् सा प्रवासार्थम् आगन्तुं न शक्नोति एवं वा इस् दट् सो एवं वा कः कार्यक्रमः तस्याः भ्रातुः जन्मदिनं भ्रातुः इत्युक्ते सहोदरः सहोदरस्य जन्मदिनं सा न आगच्छति एव बर्त्डे तर्हि सा न आगच्छति एव इत्युक्ते किं
दट्स् वै शी विल् नाट् कम्
डेफिनेट्लि नाट् कम्
नाट् कम्
वयं गच्छामः सम्भाषणम् अर्धम् अवगच्छति वा अवगच्छन्ति वा सर्वे भोः कुत्र गच्छति भवान् प्रवासार्थं गच्छामि के गच्छन्ति के बहुवचनम् अत्र के गच्छन्ति अहं श्रीनिधिः भास्करः विमला च गच्छामः मिलित्वा वदतु भगिनि प्रश्नः
अत्र तर्हि विल् कम् सेपरेट्लि
देर् इस् नो यदि खलु
आम् इट् विल् आल्सो कम् सेपरेट्लि
न अवगतं भगिनि प्रश्नः कः
इन् द नेक्स्ट् पेज् भगिनि
ओ
तर्हि सा न आगच्छति
तर्हि तर्हि सा न दट् मीन्स् देन् शी वोण्ट् कम् आम् आम् तर्हि tavat, all these will come separately. So we will learn that another time. Tarhi, tavat eva, like that. All those will come separately. Astu. Good observation, Bhagini. Aham Srinidhi Bhaskaraha Vimalacha Gachamaha Mekala Kama within starting course. Aham Api Agachami close course. Iti Uttavati. So here is Parantu. Parantu means but. Parantu Sa Na Agachati Va Na Va Iti Na Janami. Uttavati Na Janami. I don't know. Sa na agachati eva. Definitely will not come. Bhavan katam janati tasyaha grihe kopi karyakramaha asti. Kaha api karyakramaha asti. Ataha sa pravasartam agantum na shaknoti. Evam va. Is that so? Kaha karyakramaha tasyaha sahodarasya janmadinam.
Janmadinam.
Tarhi sana agachati eva vayam gachamaha. So anya kimapi vishyam aham vadami. Karyakramaha asti. That means some. Okay, some. So the kopi means some. Okay, the kopi atra, kopi means some. But if I say kopi karyakramaha nasti. So if I say a negative, I say nothing. Nothing. So here it means something. If it's positive, it means something. Kopi nasti. So if I say kopi asti. Kopi asti, something is there. Kopi nasti, nothing. Avagatamva bedaha. Kopi asti, kopi nasti.
Here kahapi is... Napumsakalinga, kaha.
Kaha is pullinga. Pullinga.
Pullinga.
Pullinga.
Karyakramaha is pullinga.
Pullinga. Uttamaha prashnaha. Good observation, Mahodaya. Kaha, because karyakramaha. Kaha. Astu. So, atra. So, we will go through this. In the atra pashyatu. Kaha api, somebody, anybody. Kopi na, nobody. So if you have ka api, that is na, that is strilinga pada.
Strilinga.
Kapi asti, kopi na. Kimapi, something.
Kimapi
vadatu. Napum sakaling. Kimapi vadatu. It means say something. Kimapi vadatu, say something. Iti. Astu, atra etesham upayogam kritva ekam sambhashanam likatu. So atra ekam sambhashanam asti kalo cha eva iti api etani padani upayogam kritva anya sambhashanam likantu iti vakyam asti. Astu aham api ekam grihakaryam preshayami. Avagatam va? Ahamapi preshayami bhavantaha kurvantu. Astu. Prashnaha santi va?
Aham bhagini.
Vadatu bhagini.
why do we put a s with kaha plus a p and that s doesn't come
from ah uttam yeah uttamah prashnah so atra the kaha because of sandhi it becomes kash so first it will become ko and then api so atra there is another sandhi that says when we have a o and an a the a gets removed okay so we have to remove the a so it will become ko pi but then we want to tell people there is an a so for that we use the s so this is called avagraha chinna kopi
so wherever there is a
swaraha
we need to use the s when I do something.
So this is called avagraha chinna avagraha chinna
धन्यवादः
भगिनी सो वी केन् आस्क् द क्वश्चन् इन् द ग्रूप् ओके सो वी केन् हाव् सम्भाषणम् इन् द ग्रूप् अस्तु विरमाम शान्तिमन्त्रं वदामः ॐ सर्वे भद्राणि पश्यन्तु कश्चित् ॐ शान्ति 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 हरि ओम् हरि यो नमो हरि धन्यवादः
धन्यवादः
धन्यवादः भगिनि धन्यवादः